सर्वेभ्यो नमः. गतवर्गे वयं भूतकालस्य तव तु प्रत्ययान्तरूपं दृष्टवन्तः. तत्र गतवान्, गतवती, निर्मितवान्, निर्मितवन्तः, उक्तवती इति तादृशरूपं भूतकालस्य दृष्टवन्तः. एतद् नामपदम् अस्ति, विशेषणम् अस्ति इति कृत्वा तत्र पुल्लिङ्गरूपम् अस्ति, स्त्रीलिङ्गरूपम् अस्ति, अपि वचनभेदः अस्ति, एकवचने एकं रूपं, द्विवचने वचने अन्यत् रूपम् इति. तत्र उक्तवती, उक्तवान् इति पदस्य विभक्तिः अपि भवति, तद् अग्रे पश्यामः. किन्तु तद् भूतकालरूपं चेत् तद् भूतकाल क्रियापदम् इव स्वीकुर्मः अत्र. अस्तु, तस्य परिचयः अपि किञ्चित् अभ्यासः पूर्वमेव कृतः. किन्तु अद्य वयं तत्र कथायाः अनन्तरं यः अभ्यासः अस्ति तम् अद्य कुर्मः. अतः करपत्रे द्वितीयपुटे अभ्यासः 17 अभ्यासः इति अस्ति. तत्र गीताञ्जलि भगिनी आरम्भं करोति वा?
आं महोदय. अभ्यासः 17. उदाहरणानुसारं स्टार्टिङ्ग् ट्रबल् पूरयन्तु. एकवचन, द्विवचन, बहुवचन, पुंलिङ्गः, गतवान्, गतवन्तौ, गतवन्तः, प्रमाणितवान्, प्रमाणितवन्तौ, प्रमाणितवन्तः
इति अस्ति. समीचीनं भगिनि. अस्तु, नरेश महोदय अग्रे.
कुत्र महोदय, न जानामि.
करपत्रम् अहं ह्यः प्रेषितवान, तत्र लिङ्क् अस्ति महोदय. एकं फैल् अस्ति, KIC किमपि अस्ति. तत्र करपत्र, तत्र स्मारणपत्रे आरम्भे एव आङ्ग्लभाषायाम् अहं लिखितवान् अत्र अद्य एतस्य उपयोगः भवति इति. स्मरणपत्रे अस्ति महोदय, नो चेत् गतवर्गे यद् वयम् उपयोगं कृतवन्तः तदेव, किन्तु किञ्चित् सम्यक् स्केन् अस्ति इति तावदेव.
गतवर्गे अहं न आसीत्.
अस्तु महोदय, किन्तु स्मरणपत्रं पश्यतु, तत्र आङ्ग्लभाषायां यत् लिखितम् अस्ति तत्र एव अस्ति महोदय.
Length here nasti na janami kutra pramanitavan
ha asastu antasme tasya agre niyo
pramanitavan pramanitavantau pramanitavanta
ha idani agre agrimam api karatu mohdi ha
महोदय. नियोजितवन्तः, नियोजितवान्, नियोजितवन्तौ, नियोजितवन्तः.
समीचीनम्. अस्तु, वेणुगोपाल महोदय अग्रे.
आं महोदय, पृष्टवान्, पृष्टवन्तौ, पृष्टवन्तः.
समीचीनम्. रघुपति महोदय अग्रे.
एकनिमिषं, निर्मितवान्, निर्मितवान्, निर्मितवन्तौ, निर्मितवन्तः.
समीचीनम्. अस्तु, उषा भगिनि. अस्तु, वेङ्कटरामन् महोदय.
आं महोदय, निवेदितवन्तः, सप्तमः. निवेदितवान्, निवेदितवन्तौ, निवेदितवन्तः.
समीचीनं महोदय. अस्तु, शुभा भगिनी अग्रे.
कूर्दितवान्, कूर्दितवन्तौ, कूर्दितवन्तः.
शुभा भगिनी, धन्यवादः. इदानीं शुभा भगिनी अपि.
मम समीपे तत् नास्ति महोदय, भवान् प्रेषितवान् अस्ति.
स्मरणपत्रम् अस्ति वा? अद्यतनवर्गस्य स्मरणपत्रम् अस्ति खलु.
भवान् प्रेषितवान् करपत्रं, करपत्रं प्रेषितवान् एव.
तत्र गूगल् ग्रुप्स् मध्ये ईमेल् आगतं खलु अद्यतनस्मरणपत्रं
तत् न प्राप्नोमि न प्राप्तवती
अस्तु भगिनि हा एकनिमिषः पश्यामः तत्र किं कुर्मः एकः निमिषः तत्र एकनिमिषं भगिनि अस्तु अहं प्रेषितवान् अग्रे वदतु भगिनि अस्तु वंशीसुधा भगिनि नमस्कारः
नमस्ते महोदय नवमबिन्दु अस्ति वा दशम अस्ति वा महोदय
नवम इति मन्ये
त्यक्तवान्
अष्टम
कूर्दितवान्
शोभगिनि कृतवती अस्तु अस्तु समीचीनं
महोदय त्यक्तवान् त्यक्तवन्तौ त्यक्तवन्तः
हा समीचीनं भगिनि अस्तु श्रीप्रिया भगिनि तत्र अन्य कोऽपि श्रीप्रिया अस्ति खलु श्रीप्रिया अस्तु इति वक्तुमिच्छति चेत् वदन्तु हा अस्तु अग्रे गीताञ्जलि भगिनि अग्रे
उक्तवन्तौ महोदय
आमां सत्यं भगिनि
उक्तवान् उक्तवन्तौ उक्तवन्तः
हा इति अस्ति अस्तु तत्र स्त्रीलिङ्गमपि करोतु भगिनि तत्र
दृष्टवती दृष्टवत्यौ दृष्टवत्यः श्रुतवती श्रुतवत्यौ श्रुतवत्यः
हा समीचीनं नरेश महोदय अग्रे
दत्तवती दत्तवत्यौ दत्तवत्यः
हा समीचीनं शोभा भगिनि
कृतवती कृतवत्यौ कृतवत्यः
हा समीचीनं हा रघु प्राप्तवती वा शुभ भगिनी अस्तु
महोदय
अस्तु अस्तु एकनिमिषः हा अस्तु रघुपति महोदय अग्रे
दत्तवती दत्तवत्यौ दत्तवत्यः
कृतवती कृतवत्यः अपि कृतं तदनन्तरम् उपदिष्टवती
उपदिष्टवती उपदिष्टवत्यौ उपदिष्टवत्यः
हा समीचीनं महोदय हा वेणुगोपाल महोदय हा इति समीचीनम् अस्तु हा इदानीम् उषा भगिनी
दत्तवती दत्तवत्यौ दत्तवत्यः
हा समीचीनं हा अस्तु वेङ्कटरमण महोदय
आम् महोदय धावितवान् धावितवन्तौ धावितवन्तः
हा अस्तु शुभा भगिनी इदानीं
क्षम्यता महोदय
तत्र पुल्लिङ्गे अस्ति भगिनि तत्र मुद्रणदोषप्रायश अस्ति स्त्रीलिङ्गमिति स्त्रीलिङ्गमपि वदतु महोदय
धावितवत्यौ धावितवत्यः
हा समीचीनं महोदय हा अस्तु शुभा भगिनी अग्रे
प्रतिज्ञातवती प्रतिज्ञातवत्यौ प्रतिज्ञातवत्यः
समीचीनं भगिनि अस्तु
इत्युक्ते महोदय इत्युक्ते
प्रतिज्ञां कृतवती
या
प्रतिज्ञां कृतवती प्रतिज्ञातवती वंशीसुधा भगिनि अग्रे
आं महोदय आकृष्टवती आकृष्टवत्यौ आकृष्टवत्यः
इति अस्ति
इति पदम् इत्युक्ते महोदय
वक्तुमिच्छति वा आकृष्टम् इति
यः आकृष्टम् किन्तु आकृष्टवत्य इत्युक्ते दे अट्राक्टेड्
या आकर्षणं करोति सा आकर्षणं कृतवती सा आकृष्टवती
महोदय आङ्ग्लभाषा मां
आकर्षणं कृतवती
इत्युक्ते यथा उदाहरण कृष्ण भगवान्
आकृष्टवान्
अस्तु 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 अहं भ्रम
श्रीकृष्णः भक्तम् आकृष्टवान्
भक्तम् आकृष्टवान् अस्तु
समीचीनं वा भगिनि
विश्वामित्रम्
आकृष्टवती इदानीम् अग्रिम अभ्यासः अपि अस्ति तत्र परिवर्तनं करणीयम् इति तत्र सुलभमेव अस्ति किन्तु तत्र किञ्चित् अपि कुर्मः तत्र पुल्लिङ्गे अस्ति तत्सर्वं पुल्लिङ्गे एव अस्ति इति अस्तु अस्तु तत्र एतत् कुर्मः सः इति एकवचने उपयोगं कृत्वा सः पठितवान् इति उक्त्वा बहुवचने किम् अस्ति इति वदन्तु अस्तु तत्र सः पठितवान् इति उदाहरणमस्ति चेत् ते पठितवन्तः इति अस्तु अथवा एषः इति किमपि उपयोगं कृत्वा वदन्तु अस्तु अग्रे नरेश महोदय
महोदय सः त्यक्तवान् ते त्यक्तवन्तः
अस्तु समीचीनं वेणुगोपाल महोदय एषः इति
एषः
एषः श्रुतवान् अग्रिमम्
एषः श्रुतवन्तः
न न एषः एषः श्रुतवान्
एषः श्रुतवान्
पुल्लिङ्गे सः अस्ति चेत् सः तौ ते एषः अस्ति चेत्
एते श्रुतवन्तः
एते श्रुतवन्तः समीचीनं रघुपतिमहोदय अग्रे
सः दत्तवान् ते दत्तवन्तः
ते दत्तवन्तः अस्तु समीचीनं अस्तु अग्रे उषा भगिनी तत्र रामः अर्पितवान् देवः अर्पितवान्
देवः अर्पितवान् देवाः अर्पितवन्तः
देवाः अर्पितवन्तः अस्तु वेङ्कटरमण महोदय तत्र सः उक्तवान्
आं महोदय सः उक्तवान् ते उक्तवन्तः
समीचीनम् अस्तु अग्रे तत्र शोभा भगिनी अग्रिम तत्र प्रायशः द्विवचने अस्ति इदानीं तत्र पुनः सः इति उपयोगं कृत्वा वदतु भगिनि
आं महोदय उदाहरणं जीवितवन्तः जीवितवन्तौ
सः जीवितवन्तः ते जीवितवन्तः
सः ते जीवितवन्तः तौ जीवितवन्तौ तत्र आनीतवन्तः अस्ति ते आनीतवन्तः तौ आनीतवन्तौ
तौ आनीतवन्तौ समीचीनं वंशीसुधा भगिनी एते खादितवन्तः
किम् उपयोगं कुर्मः महोदय
एते
खादितवन्तः एतौ खादितवन्तौ
एतौ खादितवन्तौ अस्तु समीचीनं गीताञ्जलि भगिनी तत्र छात्राः पठितवन्तः
छात्राः पठितवन्तः
द्विवचने
छात्रौ पठितवन्तौ
समीचीनं नरेश महोदय
रामाः दृष्टवन्तः रामौ दृष्टवन्तौ
समीचीनं अग्रे वेणुगोपाल महोदय तत्र सेवितवन्तः अस्तु तत्र
ते सेवितवन्तः तौ सेवितवन्तौ
अस्तु समीचीनं रघुपतिमहोदय अग्रे
एकनिमिषं महोदय सेवितवन्तः द्विवचन एकवचने परिवर्तयतु उत्थितवान् अस्तु प्राप्तवन्तौ अस्तु तौ प्राप्तवन्तौ
सः प्राप्तवान् अस्तु समीचीनं अस्तु अग्रे उषा भगिनि.
सुप्तवन्तौ सुप्तवान्
एषः तौ सुप्तवन्तौ
तौ सुप्तवन्तौ सः सुप्तवान्
सः सुप्तवान् समीचीनं. वेङ्कटरामन् महोदय तत्र चलितवन्तौ छात्राः च छात्रौ चलितवन्तौ
छात्रौ चलितवन्तौ छात्रः चलितवान्
छात्रः चलितवान् समीचीनं. शुभा भगिनी
कौ आगतवन्तौ कः आगतवान्
समीचीनं भगिनी अस्तु उत्तमम् अस्तु अग्रे अग्रे वंशीसुधा भगिनी आरम्भं करोति वा.
आं महोदय स्त्रीलिङ्गरूपाणि लिखन्तु. पूजितवान् पूजितवती किं किं योजनीयं महोदय तत्र
केवलं
ओ अस्तु परन्तु सः हसितवान् सः हसितवान् सा हसितवती
सा हसितवती अस्ति अस्तु भगिनि तदपि समीचीनमेव अस्तु. वेणुगोपाल महोदय अग्रे.
आं महोदय रामः पृष्टवान् रमा पृष्टवती
अस्तु समीचीनं. अस्तु नरेश महोदय.
एषः अधीतवान् एषा अधीतवती
समीचीनं. गीताञ्जलि भगिनि
सा परित्यक्तवान् सः परित्यक्तवान् सा परित्यक्तवती
समीचीनं. शोभा भगिनि
बालकः स्वीकृतवान् बालिका स्वीकृतवती
समीचीनं. अस्तु शुभा भगिनी
सः धृतवान् एषा धृतवती
समीचीनं भगिनि. अस्तु अस्तु अग्रे वेङ्कटरमण महोदय अग्रिमपुटे आरम्भं करोतु.
महोदय एकः प्रश्नः महोदय त्यक्तवान् तत्र परि किमर्थम् उपयोगं कृतवान् महोदय परित्यक्तवान् त्यक्तवान् आम् तत्तु जानीमः परन्तु परि इति अर्थः किम् अभवत् महोदय तत्र
प्रायशः अत्र प्रायशः कोऽपि भेदः नास्ति भगिनि किन्तु तत्र तस्य
उपसर्गमस्ति
स्थापने
अर्थभेदः
कीदृशम् इति कीदृशः इति प्रश्नः
महोदय. धृतवान् इत्युक्ते
किं भगिनि
धृतवान् इत्युक्ते
धृतवान्
धरति
धरति
नूतनवस्त्रं धृतवान्
अस्तु अग्रे वेङ्कटरमण महोदय अग्रिमपुटे
षष्ट अभ्यासः उचितपदेन रिक्तस्थानं पूरयन्तु. हसितवती निवेदितवान् पृष्टवती दत्तवन्तौ श्रुतवन्तः इति पञ्चपदानि दत्तवन्तः तत्र इदानीम् आरम्भं करोमि. मां दृष्ट्वा बालिका हसितवती. पुत्रः जनकाय निवेदितवान्
पुत्रः जनकाय निवेदितवान् समीचीनं महोदय. अस्तु अग्रे रघुपति महोदय अग्रे.
एकनिमिषः महोदय. अस्तु तौ छात्रौ परीक्षायाम् उत्तरपुस्तिकां परीक्षायाम् उत्तरपुस्तिकां लिखित्वा दत्तवन्तौ.
तत्र तदेव अस्ति अस्तु समीचीनं महोदय. अस्तु अग्रे नरेश महोदय.
दर्शकाः गायकस्य गीतं श्रुतवन्तः.
दर्शकः गायकस्य गीतं श्रुतवन्तः समीचीनं. अस्तु शोभा भगिनी
छात्रा अध्यापकं प्रश्नं पृष्टवती.
छात्रा अध्यापकं प्रश्नं पृष्टवती समीचीनं. अस्तु शीतल भगिनी नमस्कारः.
नमस्कारः महोदय.
नमस्कारः भगिनी. अस्तु अग्रे गच्छामः तत्र अग्रिम शीतल भगिनी भवती एव पठति वा अग्रिम अभ्यासः तत्र. करपत्रम् अस्ति प्रेषितं, मया प्रेषितं ईमेल् द्वारा, प्राप्तवती वा न? अस्तु अस्तु अस्तु, अतः शृणोतु भगिनि. अस्तु हा अस्तु, इदानीम् अन्य कोऽपि, हा रघुपतिमहोदय अग्रिमम् आरम्भं करोति वा?
आम् आम् महोदय, एकनिमिषम्. कर्तृपदस्य क्रिया, कर्तृपदस्य क्रियापदस्य च स्त्रीलिङ्गरूपं प्रयुज्य वाक्यानि रचयन्तु. पितामहः कथां कथितवान्, पितामही कथां कथितवती. पिता पुत्रं पाठितवान्, पिता पुत्रीं, सारि एक पितामही, अस्तु पिता माता माता पुत्रं पाठितवती.
हा माता पुत्रं पाठितवती, समीचीनम्. अस्तु इदानीं कः, गीताञ्जलि भगिनी एतत्
छात्रः विद्यालयं गतवान्, छात्रा विद्यालयं गतवती.
हा समीचीनं, हा अस्तु. अग्रे तत्र शुभा भगिनी.
मातुलः मिष्टान्नं आनीतवान्, मातुलानि मिष्टान्नं आनीतवती.
समीचीनम्. उषा भगिनी अग्रे.
भ्राता गृहम् आगतवान्, अहं लिखितवती याता. समीचीनमस्ति वा महोदय?
तत्र भ्राता इति, हा तत्र किं भगिनि किम् उक्तवती?
याता, सिस्टर् इन् ला.
भ्राता इति
सहोदरी,
सहोदरी अनुजा, हा भगिनी, हा
अनुजा,
अनुजा अग्रजा सहोदरी भगिनी. हा
अनुजा गृहम् आगतवती.
हा समीचीनं भगिनी, अस्तु. हा अस्तु अग्रे, हा एतावत् कः न पठितवान् अत्र? वेणुगोपाल् महोदय पठितवान् वा अत्र? नरेश् महोदय, नरेश् महोदय पठतु, अग्रे वेणुगोपाल् महोदय पठतु. हा
राजा राज्यं शासितवान्, राणी,
राणी
राज्यं शासितवती.
शासितवती, समीचीनं महोदय, अस्तु.
महोदय राज्ञी अपि अस्ति वा महोदय?
राज्ञी अपि अस्ति, महाराज्ञी इति अस्ति खलु. अस्ति भगिनि, अस्तु. वेणुगोपाल् महोदय
अष्टम अध्यायः. लिङ्गं निर्दिश्यन्तु.
क्रीतवती
स्त्रीलिङ्गमस्ति. स्वीकृतवान् पुल्लिङ्गमस्ति.
क्रीतवान् स्वीकृतवान् तत्र पुल्लिङ्गम् अपि वचनं किं महोदय?
वचनम् एकवचनं महोदय.
एकवचनं, समीचीनम्, अस्तु. अस्तु वंशीसुधा भगिनी अग्रे. क्रीतवान् इति,
आम् महोदय, पीतवान् पुल्लिङ्गे शब्दमस्ति, एकवचने.
एकवचने, समीचीनम्, अस्तु. शोभा भगिनी अग्रे.
दृष्टवन्तौ द्विवच, दृष्टवन्तौ पुल्लिङ्गे द्विवचने अस्ति.
द्विवचने अस्ति, अस्तु समीचीनम्. शोभा भगिनी उक्तवती.
उक्तवती स्त्रीलिङ्गम् एकवचनं.
स्त्रीलिङ्गम् एकवचनम्, अस्तु. वेङ्कटरामन् महोदय.
श्रुतवत्यः श्रीलिङ्गं बहुवचनं.
हा अस्तु. हा इदानीं किं कुर्मः तत्र? प्रायशः अन्यत् सर्वं तत्र विभागमपि अग्रिमपुटे यदस्ति तद् सर्वे गृहे कर्तुं शक्नुमः इति मन्ये. अतः हा अस्तु, तावत् एव अस्मिन् करपत्रे. अस्तु इदानीम् अत्र वयं पुनः गीतासोपानं गच्छामः. तत्र सोपाने वयं कुत्र स्मः? तत्र
पञ्चम
गीतासोपाने पेज् वयं किं कृतवन्तः? तत्र अहं चिन्तयामि तत्र पेज् द्व्यशीतिः तत्र स्मः इति, अथवा एक अशीतिः अपि न कृतवान्. पञ्चम अभ्यासः, तदेव गृहपाठः आसीत्. एकनिमिषः.
वेङ्कटरमण सर्, तत्र बहु किमपि नाश् अस्ति.
क्षम्यताम्. अस्तु, क्षम्यताम्. इदानीं तत्र पञ्चम अभ्यासः एकाशीतितमे पुटे. अस्तु, तत्र वेङ्कटरमण महोदय भवान् एव आरम्भं करोति वा तत्र?
एकनिमिषम्. अस्तु महोदय. पञ्चम अभ्यासः, रिक्तस्थानानि तिक्तवतु प्रत्यान्तरूपैः पूरयत. उदाहरणम्, अहम् आश्रमं गतवान्. द्वितीयं, त्वं तत्र कदा गतवान्?
समीचीनं महोदय. अस्तु, उषा भगिनी अग्रे.
आं महोदय, वयम् एकस्य वृद्धस्य जीवनकथां श्रुतवन्तः.
श्रुतवन्तः, समीचीनं. अस्तु, तत्र
महोदय तत्र क्षम्यता महोदय, तत्र एकस्य वृद्धस्य किमर्थम्, एकं वृद्धस्य किमर्थं न लिखितवान् महोदय?
विशेषः
तत्र एकः वृद्धः, तस्य वृद्धस्य जीवनकथा.
आं महोदय, वृद्धस्य जीवन. ओके, अस्तु अस्तु.
पृष्ठसङ्ख्या महोदय
81
महोदय. महोदय, अत्र अत्र वयम् एकस्य वृद्धस्य जीवनकथां श्रुतवत्या अपि च समीचीनं.
सत्यं सत्यं, समीचीनं भगिनि. तत्र स्त्रीलिङ्गे अस्ति चेत् श्रुतवत्यः, पुल्लिङ्गरूपं बहुवचने श्रुतवन्तः. सत्यं भगिनि, किन्तु वयम् इति बहुवचने एव खलु?
अस्तु अस्तु,
समीचीनं भगिनि. अस्तु, अग्रे वेणुगोपाल महोदय.
सः पूर्वं योगशास्त्रं पठितवान्.
योगशास्त्रं पठितवान्, समीचीनं. नरेश महोदय.
तत्र निपुणतां प्राप्तवान्.
तत्र निपुणतां प्राप्तवान्, समीचीनं. गीतांजलि भगिनी.
किन्तु जीवने तद् न आनीतवान्.
अथवा आनीतवन्तः अपि तदपि तत्र तत्र वचनं किमपि न दत्तम् इति मन्ये.
किमपि समीचीनं. लिङ्गं लिङ्गं च
वचनं
वचनं च.
सत्यं भगिनि. अस्तु, शोभा भगिनी अग्रे.
महोदय, तत्र क्षम्यतां, तत्र चतुर्थः छः पूर्वं योगशास्त्रं पठितवान्, अनुवर्धनेन पञ्चम षष्ठ अपि.
सत्यं 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 महोदय, सत्यं सत्यं. उत्तमम् अस्ति, समीचीनं. किन्तु केवलं वाक्यं दृष्ट्वा यत् भवान् वदति समीचीनमेव. तत्र एकवचने एव भवितव्यम् इति. सत्यं, सः इति यः तत्र चतुर्थवाक्ये अस्ति सः एव इति खलु? किन्तु तत्र प्रायशः अत्र अहम् आश्रमं गतवान्, तत्र त्वं तत्र. अस्तु, हा अस्तु 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 इदानीमेव अहम् अवगच्छामि. सत् समीचीनं महोदय, धन्यवादः वेङ्कटरमण महोदय, धन्यवादः. हा अस्तु,
तत्र
वृद्धस्य कथा अस्ति.
हा वृद्धस्य कथा अस्ति इदानीम्. अस्तु हा समीचीनं, धन्यवादः. हा अस्तु,
हरि ओम् महोदय, शुभोदयं, विलम्बेन आगतं महोदय.
हा हरि ओम्, नमस्कारः महोदय, बानचैतन्य महोदय नमस्कारः. हा तत्र गीतासोपाने एकाशीतितमे पुटे स्मः.
एकाशीति महोदय,
इति वन् अस्तु. तत्र कः
अहं महोदय, तत्र यदि कथामस्ति चेत् तेन दुःखं प्राप्तवान्.
हा तेन दुःखं प्राप्तवान्, समीचीनं भगिनि. अस्तु, वंशीसदा भगिनि अग्रे.
आं महोदय, कुत्रापि ज्ञानं न दत्तवान्.
समीचीनम्. अस्तु अग्रे शीतल भगिनी, इदानीं पुस्तकम् अस्ति खलु गीतासोपानम्. आं
महोदय, अनन्तरं वृद्धाश्रमम् आगतवान्.
आगतवान्, समीचीनं भगिनि. अस्तु शुभा भगिनी अग्रे.
किं त्वम् एतां घटनां श्रुतवान्?
अस्तु वेङ्कटरमण महोदय अग्रे.
हा एकनिमिषः. यूयं तत्र स्थापितवन्तः?
प्रायशः स्थापितमिति नास्ति, तिष्ठवन्तः इति.
तिष्ठवन्तः
तिष्ठवन्तः प्रायशः अपि तिष्ठवन्तः इति.
तिष्ठवन्तः
समीचीनं, स्थितवन्तः न समीचीनं महोदय.
तिष्ठवान् न भवति तत्र, स्थितवान् भवति
वा? स्थादातु अस्ति,
स्थाति धातु, तिष्ठापि स्था एव धातु अस्ति न महोदय.
अतः तिष्ठवन्तः, किन्तु रूपम् अत्र विकल्पः अस्ति न वा इति.
स्था धातोः इक्तवतु प्रत्ययः तिष्ठवान् तिष्ठवन्तौ तिष्ठवन्तः इति अहं चिन्तयामि.
सत्यं महोदय, किन्तु हा तत्र स्थितवान् अपि, हा स्थितवान् अपि स्थितवान् अपि वयं शृण्मः खलु तत्र. हा तस्य धातुः किमिति अतः अहं चिन्तयामि. प्रायशः समीचीनं, स्थितवान् स्थितवन्तः अथवा तिष्ठवन्तः इति. हा
समीचीनं.
अस्तु अग्रे
महोदय, सप्तमे प्रश्नः अस्ति, तेन दुःखं, तत्तु कर्मणि प्रयोगे अस्ति. तेन दुःखं
प्राप्तं,
प्राप्तं
द्वत्यं.
बहु समीचीनमस्ति महोदय. किन्तु जीवने तद् न प्राप् आनीतवान् तेन दुःखं.
किन्तु तत्र महोदय,
तेन दुःखं प्राप्तवान्, किं प्राप्तवान्?
किमपि कृतवान्?
न कः महोदय, तत्र जीवने तत् न आनीतवान् इति कृत्वा सः दुःखं प्राप्तवान्. किं प्राप्तवान्? दुःखं प्राप्तवान्. कः प्राप्तवान्? एषः वृद्धः एव प्राप्तवान्.
परन्तु कर्मणि प्रयोगे कर्मपदं क्रियापदम् अस्ति, प्राप्तं दुःखं.
किन्तु महोदय, तत्र दुःखम् इति कर्तृपदं नास्ति अत्र.
तेन कारणेन दुःखं प्राप्तं,
तेन
कारणेन दुःखं. तत्र तेन इत्युक्ते कः? तत्र वृद्धः न,
सः दुःखं प्राप्तवान्. वृद्धः दुःखं प्राप्तवान्,
वृद्धः दुःखं प्राप्तवान्, केन कारणेन तत्र सः जीवने तत् किमपि पूर्वं यदासीत् तद् न आनीतवान् इति कृत्वा तेन
कारणेन महोदय महोदय तेन तत्र निपुणत्वं सूचयति.
आमामां तत्र यद् न आनीतवान् यद् न आनीतवान् जीवने
योगशास्त्रस्य निपुणत्वं सूचयति.
तद् न आनीतवान् अतः दुःखं प्राप्तवान्. किन्तु किन्तु नरेश महोदय तत्र तत्र तेन इति अस्ति चेत् तत्र कर्मणि इति भवति इति तत्र सावधानम् आवश्यकम् इति तत्तु समीचीनमेव महोदय. किन्तु अत्र प्राप्तवान् इति समीचीनम् अस्ति.
कथायां प्राप्तवान् एव दुःखं प्राप्तम् इति भवति
अतः अतः तत्र अस्तु समीचीन अंशः अत्र अस्तु. कः वंशीसुध भगिनी उक्तो
उक्तवती
वा अस्तु अस्तु अस्तु. इदानीं कः तत्र शुभा भगिनी अग्रे पठति वा.
आवाम् एतस्मिन् विषये चिन्तनं कृतवन्तौ. आवाम् एतस्मिन् विषये चिन्तनं कृतवन्तौ.
महोदय कुत्रापि ज्ञानं न दत्तवान् कुत्रापि ज्ञानं न दत्तवान् न लैक् शी इस् रीडिङ्ग् ट्वेल्थ् वन् अष्टम.
किन्तु एकादशं वयं कृतवन्तः तिष्ठवन्तः
अष्टम कृतवन्तः महोदय नवम एव
तदपि कृतं. केवलं प्रश्नः आसीत् नरेश महोदयस्य तत्र तेन दुःखम् इति तस्मिन् विषये. किन्तु तस्य पूर्वं वयं एकादश बिन्दु अपि कृतवन्तः पूर्वमेव. इदानीं द्वादशमपि कृतं अग्रे त्रयोदशं तत्र वेङ्कटरमण महोदय अग्रे
एकनिमिषं. वयं जीवने योगशास्त्रम् आचरितवन्तः
आचरितवन्तः समीचीनं अस्तु. उषा भगिनी अग्रे.
कुरुक्षेत्रे कौरव पाण्डवाः युद्धवन्तः.
तत्र युद्धवन्तः इति न प्रायः
युद्धितवान्
इति अहं चिन्तयामि. तत्र
युद्ध
तत्र पूर्वं प्रायः
आचार्य युद्ध धातोः आत्मनेपदी रूपं भविष्यति युध्यते.
किन्तु तावत् रूपं किम् अस्ति तत्र
युद्धितवान् युद्धितवन्तौ युद्धितवन्तः
तदेव अस्ति वा योजितवन्तः इति नास्ति वा. अस्तु
79 पुटे 79 पुटे अस्ति
युद्धितवान्
युद्धवान्
युद्धितवन्तः
किं पुटे महोदय
युद्धवान् लास्ट् अस्ति 79
पेज्
युद्धते युद्धवान् युद्धवन्तौ युद्धवन्तः
अस्तु अस्तु युद्धवन्तः अस्तु भगिनि अस्तु धन्यवादः धन्यवादः सर्वेषाम् अस्तु समीचीनम् अस्तु.
तत्र युद्ध धातो अनिट् अस्ति महोदय इदानीं इडागमः न भवति अहं चिन्तयामि.
अस्तु अस्तु इदानीं
महोदय युद्धवान् युद्धवन्तौ युद्धवन्तः अस्ति वा युद्धितवन्तः अस्ति वा महोदय
युद्धितवन्तः
युद्धितवान् इति एव उक्तं खलु इदानीं
79 पुटे युद्धवान् युद्धवन्तौ
युद्धवन्तः इति भवति
अस्तु. अन्तिमम् अन्तिमम् अस्ति तत्र कः
भानुचैतन्यं
रघुपति महोदय अग्रे अन्तिमं करोति वा तत्
भानुचैतन्यमहोदय
क्षम्यतां वदतु महोदय मम क्षम्यतां हा
अर्जुनः सैन्यम् ईक्षितवान्
ईक्षितवान्
दृष्टवान् दृष्टवान् दृष्टवान्
ईक्षदातोः
ईक्षते
अस्ति
ईक्षदातोः तु दत्तेव
तव तु रूपम्
ईक्षितवान् पेज् 79 मध्ये
ईक्षितवान्
ईक्षितवान्
लभते उपरि ईक्षितवान् एव महोदय
गतसप्ताहे वयं पठितवन्तः महोदय
किन्तु मनसि नास्ति भगिनी अतः
महोदय ईक्षितवान् इत्युक्ते किं
दृष्टवान् इति
महोदय एकः अष्टसप्ततिः तमे पुटे द्वितीयबिन्दु अन्तिमवाक्यम् अस्ति सा नम्रतया तिष्ठति तत्र वर्तमानकाले अस्ति सा नम्रतया स्थितवती इति भूतकाले अस्ति यदि भूतकाले अस्ति तत्र स्थितं स्थित् इति धातु तिष्ठति परिवर्तनं भवति यथं चिन्तयामि महोदय
सूत्रम् अस्ति सा धातोः क्षिति परे अस्ति तिष्ठ इति भवति सूत्रमस्ति तत्र पा यदा पा पिबति भवति धा पा धा ना अस्ति लम्बं सूत्रमस्ति तत्र
अनन्तरं वदतु महोदय
आमाम्
अस्तु इदानीम् एतावत् वयं किं कृतवन्तः तत्र तव तु प्रत्ययम् उपयुज्य भूतकालस्य रूपं कीदृशम् इति दृष्टवन्तः इदानीं वयं भूतकालस्य लकारः लङ् लकारः यत् अस्ति तत् अग्रे पश्यामः अस्तु तत्र अग्रिमपुटे
महोदय
भानुचित्री महोदय भवान् एव आरम्भं
करोमि प्रश्नः महोदय किं भवति महोदय तत् सा भवति वा तिष्ठ भवति वा
स्थितवान् अपि अहं
चिन्तवन्तः समीचीनं नास्ति महोदय
अहं चिन्तयामि भगिनि तिष्ठवान् अपि प्रायशः
धातुः अस्ति महोदय तत्र विकारि न भवति इति अहं चिन्तयामि धातु प्लस् तवत् प्रत्यय किमपि
अतः भवान् किं वक्तुम् इच्छति तत्र रूपद्वयम्
अहं न जानामि परन्तु सम्यक् इति चिन्तयामि
स्थितवान् सम्यक् किन्तु तिष्ठवान् अपि अहं चिन्तयामि तदपि वयं शृण्मः इति तिष्ठवान् अतः रूपद्वयं प्रायशः तत्र अस्ति इति मम चिन्तनं हा द्रष्टव्यमस्ति कोऽपि दृष्ट्वा वदन्तु अस्तु
उच्चैः पठत जानीत च वर्तमानकालः लच्च भूतकालः सुरेशः भक्तियोगं पठति सुरेशः भक्तियोगम् अपठत् श्यामः गीताप्रदर्शिनीं पश्यति श्यामः गीताप्रदर्शिनीम् अपश्यत् ताः मथुरां गच्छन्ति ताः मथुराम् अगच्छन् क्षत्रियः युद्धं लभते क्षत्रियः युद्धम् अलभत सर्वे कर्मणः फलं भुञ्जते सर्वे कर्मणः फलम् अभुञ्जत अहं कृष्णं भजे अहं कृष्णम् अभजे अर्जुनः प्रज्ञावादान् भाषते अर्जुनः प्रज्ञावादान् अभाषत सात्विकाः देवान् यजन्ते
सात्विकाः देवान् अयजन्त.
समीचीनं महोदय, धन्यवादः. इदानीं तत्र लङ्लकारस्य परिचयः, तत्र अनेकानि वाक्यानि दत्तानि सन्ति, तद्दृष्ट्वा लङ्लकारस्य रूपं कीदृशम् इति ज्ञातुं शक्नुमः. तत्र तत्र लङ्लकारस्य रूपद्वयमस्ति, साधारणरूपद्वयं, तत्र परस्मैपदीधातूनाम् एकं रूपम्, अपि आत्मनेपदीधातूनाम् एकं रूपं. तत्र प्रथमतया परस्मैपदीधातूनां रूपं, साधारणरूपं, सामान्यरूपं पश्यामः. तत्र किं तत्र रूपं कः शोभा भगिनी तत्र रूपं पठति वा, तत्र अचलत् इति?
आम् महोदय, अचलत्, अचलताम्, अचलन्, अचलः, अचलतम्, अचलत, अचलम्, अचलाव, अचलाम.
हा, इति इति अस्ति. हा, अस्तु. तत्र तदपि पुनः शीतल भगिनी तत्र अग्रिम अपश्यत् इति रूपं तदपि एकवारं पठतु भगिनि.
आं महोदय, अपश्यत्, अपश्यताम्, अपश्यन्, अपश्यः, अपश्यतम्, अपश्यत, अपश्यम्, अपश्याव, अपश्याम.
हा, इति अस्ति. अस्तु, समीचीनं. तत्र रूपं कीदृशम् इति कोऽपि वदति वा, तत्र किम् अस्ति परस्मैपदी धातूनां लट् लकाररूपं कीदृशम्, अपि किं किं भवति तत्र परिवर्तनं, कस्य रूपस्य
पश्यति, पश्यथ, पश्यथ, पश्यामि, पश्यावः, पश्यामः.
हा, तत्र चलति च इति तत् उपयुज्य अत्र कोऽपि वदति वा, तत्र चलति इति क्रियापदम् उपयुज्य
सर्वे रूपाणि उपसर्ग. हा,
तत्र इदानीं सर्वत्र अकारः अस्ति. समीचीनं. हा, अस्तु. अपि
इकारस्य लोपः अस्ति.
हा, इकारः तत्र चलति इति स्थाने अचलत् इति अस्ति, अकारः अस्ति, इकारः गच्छति. हा, तदनन्तरं तत्र इकारः तत्र चलति अपि चलन्ति, तत्र चलति अपि तत्र इकारः तत्र अपि गच्छति, अपि चलन्ति तत्र अपि इकारः गच्छति. हा, अस्तु. अत्र अचलत् इति अस्ति बहुवचने, अचलन् इति अस्ति. तदनन्तरं
उत्तमपुरुषे विसर्गः नास्ति.
हा,
पठावः, पठामः, विसर्गः नास्ति,
विसर्गः नास्ति. हा, अकारः सर्वत्र अस्ति. हा, समीचीनं. हा,
एकवचने विसर्गः अस्ति,
एकवचने
मध्यमपुरुषे.
हा, केवलं तत्र अस्ति,
तत्रैव अस्ति.
हा, तत्र चलसि इति स्थाने अचलः इति भवति. समीचीनं. तत्र अचलः इति दृष्ट्वा तद् अकारान्तपुल्लिङ्गपदम् इति न वक्तव्यं खलु, न चिन्तनीयं. हा, अस्तु.
महोदय, वयं इन् फिफ्थ् इलेवन् एकादश स्था 204 पेज् इट् इस् गिवन् स्थितवन्तः.
उत्तरं दत्तमस्ति, स्थितवन्तः इति वा. अस्तु, अस्तु भगिनि. हा, धन्यवादः. हा, किन्तु तत्र रूपद्वयम् अस्ति न वा इति प्रश्नः, तिष्ठवन्तः अपि वक्तुं शक्नुमः वा इति प्रश्नः भगिनि. किन्तु धन्यवादः. हा, उत्तरम् अस्ति खलु. अस्तु,
अस्तु, समीचीनं उत्तरं दत्तम्.
हा, अस्तु. हा, इदानीं तत्र अन्यत् अन्य कोऽपि वक्तुम् इच्छति वा तत्र रूपं कीदृशमस्ति?
द्विवचने तः अपि च मध्यपुरुषे तः अस्ति, तत्समीपं ताम् भवति, तः तां भवति. अचल चलतः इति अस्ति, चलतः इति अस्ति, तत्र तं भवति. चलता इति अस्ति, तत् भवति, ऋस्वकार अस्ति. चलामि अस्ति, अस्ति अं भवति, चलम्
चलम् चलामि सत्यम् अस्तु. अस्तु, इदानीं तत्र वयं किं कुर्मः, तत्र तत्र सामान्यरूपस्य तत्र अभ्यासं तदेव प्रथमतया करणीयम्. अस्तु, तत्र अस्तु, तत्र किम् अपठत् इति अस्ति, तत्र एतदेव रूपं, तत्र किं किम् अस्ति, तत्र उदाहरणत्रयं दत्तमस्ति, तदेव उपयुज्य तस्य अभ्यासं कुर्मः. अस्तु, तत्र पठति, पश्यति, गच्छति अपि, तद् उपयोगं कुर्मः, अपि चलति, पश्यति, गच्छति, अपि तिष्ठति. अस्तु, अग्रिमपुटे किमपि दत्तमस्ति वा? अशोचयत्, अनमः, अवदव, अस्तु, तदपि उपयोगं कृत्वा वक्तुं शक्नुमः. अस्तु, इदानीं तत्र अभ्यासः, एतादृशम् अभ्यासः कुर्मः. तत्र अहं केवलं साधारणक्रियापदं, सामान्यक्रियापदम् इति चिन्तयामि. तत्र विशेषरूपम् अग्रे पश्यामः, सामान्यरूपं प्रथमतया मनसि स्थापयितुम् इच्छामः. अस्तु, तत्र किं, तत्र एकमेकं वदन्तु. अत्र शुभा भगिनी, तत्र रूपत्रयम् अस्ति खलु, अचलत्, अपश्यत्, अतिष्ठत् इति. शुभा भगिनी,
कुत्र महोदय?
अपि JT2 मध्ये तत्र कोष्टकम् अस्ति खलु?
आम् महोदय.
अचलत्, अचलत् इति अस्ति, तदनन्तरं चल् धातुः, दृष् धातुः, स्था धातुः. इदानीं तद् दृष्ट्वा पठति इति तस्य रूपं वदति वा?
आम् महोदय. अपठत,
अपठत्,
अपठत्, अपठताम्, अपठन्, अपठः, अपठतम्, अपठत, अपठम्, अपठाव, अपठाम.
इति समीचीनं भगिनि. अस्तु, इदानीम् उषा भगिनी.
आं महोदय.
तत्र गच्छति,
गच्छति, अगच्छत्, अगच्छताम्, अगच्छन्, अगच्छः, अगच्छतम्, अगच्छत, अगच्छम्, अगच्छाव, अगच्छाम इति अस्ति
महोदय. समीचीनं भगिनि. अस्तु, तत्र पुनः वेणुगोपाल् महोदय, तत्र पठति इति पुनः. वेणुगोपाल् महोदय अस्ति वा? अस्तु, नरेश महोदय.
आं महोदय. पठति, अपठत्, अपठत्, अपठताम्, अपठन्, अपठत, अपठतम्, अपठत, अपठम्, अपठाव, अपठाम.
अस्तु, समीचीनं महोदय. गीताञ्जलि भगिनी, वदति, अस्तु, शोभा भगिनी.
आम्, अवदत्, अवदताम्, अवदन्, अवदः, अवदतम्, अवदत, अवदम्, अवदाव, अवदाम.
समीचीनं भगिनि. अस्तु, वंशीसुध भगिनि, पुनः तत्र पश्यति
किं वदामि महोदय?
पश्यति,
पश्यति, आम्, सः अपश्यत्.
केवलम् इदानीं केवलं क्रियापदं भगिनि, अग्रे तदेव अग्रे कुर्मः.
अपश्यत्, अपश्यताम्, अपश्यन्, अपश्यः अपश्यतम् अपश्यत् अपश्यम् अपश्यत अपश्यम् अपश्याव अपश्याम.
हा समीचीनं भगिनि. हा अस्तु अग्रे. हा रघुपति महोदय तत्र पठति अपठत्
अपठत् अपठत् अपठताम् अपठन् अपटः अपठतम् अपठत अपटम् अपटाव अपटाम.
समीचीनं. हा इदानीम् उषा भगिनी पतति पतति. उषा भगिनी अस्ति वा? अस्तु वेङ्कटरमण महोदय. अस्तु 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 उषा भगिनी. हा पतति
अपतत् अपत अपततां अपतन् अपतः अपतम् अपत अपतम् अपताव अपताम.
हा समीचीनम्. हा वेङ्कटरमण महोदय गच्छति इति.
अस्तु महोदय. अगच्छत् अगच्छताम् अगच्छन् अगच्छः अगच्छतम् अगच्छत अगच्छम् अगच्छाव अगच्छाम.
हा समीचीनम्. हा अस्तु तत्र गीताञ्जलि भगिनी अस्ति वा इदानीं?
आं महोदय.
अस्तु अस्तु अस्तु. चिन्ता मास्तु भगिनी, चिन्ता मास्तु. अस्तु तत्र चरति चरति इति चरति अचरत्
अचरत् अचरताम् अचरन् अचरः अचरतम् अचरत अचरम् अचराव अचराम.
हा अस्तु समीचीनम्. हा अस्तु वेणुगोपाल महोदय अस्ति वा इदानीम्? अस्तु नास्ति इति मन्ये. बाणचितिनी महोदय बाणचितिनी महोदय अस्ति वा?
किं वदामि महोदय.
हा तत्र
महोदय हरि ओम् किं वदामि?
हा पठति इति वदतु महोदय.
पठति अपठत् अपठताम् अपठताम् अपठन् अपठः अपठतम् अपठत अपठतम् अपठाव अपठाम
अपठम्
उत्तमपुरुषे महोदय पुनरेकवारम्
अपठतम्
तत्र अचलम् इति अचलाव चलामि अचलम् इति भवति. अतः पठामि किं भवति?
पठामि
अपठम्
अपठम् तत्र अपठतम् इति अपठतं तु द्विवचने मध्यमपुरुषे
क्षम्यतां महोदय. आम् आम् अपठम् अपठाव अपठाम
अपठाम. अस्तु समीचीनं महोदय. अस्तु हा इदानीं तदेव इदानीं सर्वे उक्तवन्तः इति मन्ये. हा शीतल भगिनी उक्तवती वा? अस्तु भगिनि. हा अस्तु भगिनि अतः भगिनि एतत् करोतु वदति इति करोतु भगिनि.
अवदत् अवदताम् अवदन् अवदः अवदतम् अवदत अवदम् अवदाव अवदाम.
हा इति समीचीनं भगिनि. अस्तु हा इदानीं यत् अस्ति तदेव उपयुज्य इदानीं तत्र कर्तृपदं तस्य उपयोगं कृत्वा वदामः. तत्र हा रघुपतिमहोदय तत्र किं सः अपश्यत् इति.
सः सः अपश्यत् तौ तौ अपश्यतां ते ते अपश्यन् त्वं त्वं अपश्यः.
तत्र कोष्टके दत्तमस्ति महोदय.
एकनिमिषं कुत्र अस्ति
कोष्टके द्वितीयम् एव अस्ति.
एकनिमिषं महोदय कुत्र अस्ति?
पेज् 82 मध्ये.
अस्तु अस्तु अत्र अस्ति अपश्यः त्वम् अपश्यः युवाम् अपश्यतं
यूयम् अपश्यत, अहम् अपश्यम्, आवाम् अपश्याव, वयम् अपश्याम
इति अस्ति. समीचीनम् अस्तु. वेणुगोपाल् महोदय अस्ति वा इदानीम्? नास्ति इति मन्ये. अस्तु अस्तु. वंशी सुधा भगिनी इदानीं तत्र अचलत्, सः अचलत्
किम् उपयोगं कुर्मः?
सः अचलत्,
सः अचलत्, तौ अचलतां, ते अचलन्, त्वम् अचलः, युवाम् अचलतम्, यूयम् अचलत, अहम् अचलम अचलं, युवाम् क्षम्यताम्, आवाम् अचलाव, वयम् अचलाम.
हा समीचीनं भगिनि. अस्तु. शोभा भगिनि तत्र
महोदय
सः पठति इति.
अहं वा महोदय?
तत्र शुभा भगिनी अस्ति, शोभा भगिनी अस्ति. शोभा भगिनी भवती वदतु.
क्षमतां, किं?
सः पठति.
पठति. सः अपठत्, सः अपठत्, तौ अपठतां, ते अपठन्, त्वम् अपठः, युवाम् अपठतम्, यूयम् अपठत, अहम् अपठम्, आवाम् अपठाव, वयम् अपठाम.
हा समीचीनं भगिनि. हा अस्तु. अग्रे गीताञ्जलि भगिनि तत्र सा पश्यति.
सा अपश्यत्, ते अपश्यताम्, ताः अपश्यन्, त्वम् अपश्यः, युवाम् अपश्यतम् युवां, यूयम् अपश्यत, अहम् अपश्यम्, आवाम् अपश्याव, वयम् अपश्याम
इति. समीचीनं भगिनि. अस्तु. अग्रे शुभा भगिनी इदानीं तत्र छात्रः अतिष्ठत् इति.
छात्रः छात्रः अतिष्ठत्, छात्रौ अतिष्ठताम्, छात्राः अतिष्ठन्.
मध्यमपुरुषे तु त्वं, युवां, यूयम्, अहम्, आवां, वयं, तत्र परिवर्तनं न भवति.
त्वम् अतिष्ठः, युवाम् अतिष्ठतम् अतिष्ठतम्, यूयम् अतिष्ठत, अहम् अतिष्ठम्, आवाम् अतिष्ठाव, वयम् अतिष्ठाम.
समीचीनं भगिनि. तत्र मध्यमपुरुषे अपि उत्तमपुरुषे कोऽपि विकल्पः एव नास्ति, केवलं त्वं, युवां, यूयम्, अहम्, आवां, वयम्, अन्यत् किमपि तत्र न भवति भगिनि. अस्तु.
इदानीमेव पठामि अहम्, आवां, वयम् एतानि.
अस्तु भगिनि. अस्तु. किन्तु सम्यक्तया पठितवती. अस्तु. वेङ्कटरमण महोदय तत्र गच्छति इति. रामः गच्छति इति.
रामः गच्छति लङ्लकारे. रामः अगच्छत्, रामौ अगच्छतां, रामाः अगच्छन्, त्वम् अगच्छः, युवाम् अगच्छतं, यूयम् अगच्छत, अहम् अगच्छम्, आवाम् अगच्छाव, वयम् अगच्छाम.
समीचीनं महोदय. अस्तु. उषा भगिनि इदानीं तत्र किं तत्र अन्यत् आसीत् तत्र किं वदति तत्र गुरुः वदति.
गुरुः वदति. गुरुः अवदत्. गुरु अवदतां. गुरवः अवदन्. त्वम् अवदः. युवाम् अवदतं. यूयम् अवदत. अहम् अवदम्. आवाम् अवदाव. वयम् अवदाम इति
अस्ति इति समीचीनं भगिनि. अस्तु अग्रे नरेश महोदय तत्र तत्र किं कविः तिष्ठति
कविः कविः अतिष्ठत् कविः अतिष्ठताम् कवयः अतिष्ठन् त्वम् अतिष्ठः युवाम् अतिष्ठतम् यूयम् अतिष्ठत अहम् अतिष्ठन् आवाम् अतिष्ठाव वयम् अतिष्ठाम.
हा समीचीनं महोदय. हा अस्तु. हा गीताञ्जलि भगिनि तत्र माता चलति भगिनी कृतवती वा भगिनी कृतवती वा एतद् अन्य कोऽपि न कृतवान् अथवा कृतवती
अहं कृतवती महोदय
भगिनी कृतवती अन्य कोऽपि शीतल भगिनी कृतवती वा तत्र अस्तु भगिनी. हा अस्तु माता
चैतन्य
अस्तु क्षम्यता महोदय भवान् भवानेव अग्रे अस्तु शीतल भगिनी करोति अग्रे भवानेव महोदय. शीतल भगिनी तत्र माता चलति इति
माता अचलत् मातरौ अचलताम् मातरः अचलन् त्वम् अचल अचलः युवाम् अचलतम् यूयम् अचलताम् अहम् अचलम् आवाम् अचलाव वयम् अचलाम.
हा समीचीनं भगिनि. अस्तु. हा बालचेतन महोदय इदानीं तत्र कविः गच्छति
कविः गच्छति
लङ्लकारे इदानीं कविः अगच्छत्
कविः अगच्छत् द्विवचने द्विवचने किं महोदय
तत्र कोष्टकमस्ति खलु महोदय तत्र अचलत् अचलताम् अचलन्
कविः
अचलः कविः इति पदस्य द्विवचनं वा कविः कविः कवयः
कविः कविः कवयः कविः अगच्छत् कवि अगच्छताम् कवयः अगच्छन् अगच्छत् त्वम् अगच्छत्
न त्वम् इति अगच्छः तत्र अचलः इति अस्ति खलु
आम् त्वम् अगच्छः यूयं युवाम् अगच्छतम् अगच्छतम् युवां यूयम् अगच्छत अहम् अगच्छम् आवाम् अगच्छाव वयम् अगच्छाम.
हा इति समीचीनम्. अस्तु अन्य कोऽपि एतावत् नामपदम् उपयुज्य न उक्तवान् उक्तवती सर्वे उक्तवन्तः वा
आम् महोदय.
अस्तु 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 अस्तु. हा इदानीं तत्र अस्तु तत्र यद् अस्ति तत्र प्रायशः तद्रूपं द्रष्टुं शक्नुमः वा. अस्तु एतत् कुर्मः तत्र इदानीं परस्मैपदे धातूनां तत्र अपि किञ्चित् अत्र अस्ति. हा तत्र अग्रिम उदाहरणं तत्र पश्यामः तत्र अधो भागे अन्तिम उदाहरणं तत्र तत्र हा उषा भगिनी तत्र पठति वा तत्र इष् धातोः रूपम्
आम् महोदय. इष् प्रथमपुरुषः एच्छत् एच्छताम् एच्छन् एच्छः एच्छतम् एच्छत एच्छम् एच्छाव एच्छाम.
हा
इच्छति अस्ति न महोदय,
किन्तु तत्र किम् अस्ति ऐ ऐच्छताम् ऐच्छन् तत्र किं भवति इत्युक्ते तत्र किं भवति तत्र अकारः अस्ति तत्र चलति इति किम् अभवत् अचलत् इति अभवत् खलु
आं महोदय अत्र ऐ इति भवति
तत्र किं 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 भवति कोऽपि वक्तुम् इच्छति वा
वृद्धिः भवति महोदय
इषु
धातोः लट्लकाररूपाणि इच्छति इच्छतः इच्छन्ति इच्छसि इच्छत इच्छतः इच्छत इच्छामि इच्छावः इच्छामः तत्र लङ्लकारे इष् पूर्वं अ इति वर्णः तिष्ठति अतः अ योगः इ तद् गुणसन्देहे ऐ इति भवति
तत्र सन्धिकार्यः अस्ति इति इदानीं सन्धिकार्यः तत्र अस्ति इति कृत्वा ऐकारः भवति इति वदामः तावदेव समीचीनं महोदय समीचीनं तत्र पूर्वं किम् आसीत् तत्र धातोः प्रथमवर्णः किम् आसीत् चल् दृश् स्था इति तत्र स्वरः नासीत् व्यञ्जनम् आसीत् अतः अकारः व्यञ्जनम् अकारः एव अस्ति किन्तु अत्र इष्धातोः प्रथमवर्णं प्रथमवर्णः स्वरः अस्ति इति कृत्वा तत्र सन्धिकार्यः भवति अग्रे पश्यामः सन्धि अस्ति किं किम् इति किन्तु रूपं समानम् एव अस्ति प्रथम तत्र लङ्लकारे अकारः आगच्छति प्रथमतया किन्तु तत्र सन्धि कृत्वा रूपभेदः भवति ऐच्छत् इति किन्तु अचलत् ऐच्छत् अचलताम् ऐच्छताम् अचलन् ऐच्छन् तदेव रूपं किन्तु प्रथमवर्णस्य किञ्चित् परिवर्तनम् इदानीम् अस्ति अतः तत्र किमपि नूतनं नास्ति केवलं तत्र किञ्चित् सन्धिकार्यः अस्ति इति चिन्तयतु तत्र इकारस्य स्थाने ऐ इति भवति तदनन्तरं सर्वं समानमेव अचलत् इति रूपस्य कृते अस्तु इदानीं तत्र वयं
महोदय तव तु प्रति इष्टवान् इति भवति न महोदय इष्टवान् इष्टवती
तदेव वयं पूर्वं कृतवन्तः खलु भगिनि
आमां महोदय
सत्यं भगिनि भवती स्मरति अहं न स्मरामि अस्तु इदानीम् अग्रिमं यद् अस्ति तत्र किञ्चित् भेदः अस्ति तत्र कश्चन भेदः अस्ति तत्र अग्रिमं तत्र कः पठति इदानीं
महोदय एकः प्रश्नः महोदय अकारः इकारः परन्तु गुणः इति भवति न महोदय तत्र
तदनन्तरं वृद्धिः अपि भवति अस्मिन्
महोदय महोदय अत्र यदा व्यञ्जनमस्ति ह्रस्व आकारः भवति यदा स्वर अस्ति दीर्घ आकारः भवति अतः आकार ईकार ऐकार भवति आकश्च इति अस्ति अकार लङ्लकारे सर्वदा अकार एव भवति परन्तु स्वर अस्ति चेत् दीर्घ आकारः भवति प्रथमम् सन्धि भूत्वा अय भवति
ओ अस्तु विशेष विशेषरूपं
किन्तु अग्रे पश्यामः तत्र इदानीं अस्माकं कार्यं
सर्वदा भवति
अस्माकं कार्यम् इदानीं तत्र सन्धि अस्ति किन्तु धन्यवादः महोदय किन्तु
परन्तु अधेङ्गुणः इत्युक्ते अकारः या आकारः अनन्तरम् इकारः अस्ति चेत् एकारः भवति
तत्र तत्र अतः अस्तु अग्रे पश्यामः वृद्धिकार्यम् अस्ति वृद्धिकार्यमपि अस्ति इति
अनन्तरं भवान् वदन्तु
अथवा अनन्तरं पश्यामः अस्तु इदानीं अग्रिमपुटे यदस्ति तत्र रूपं कीदृशम् इति कोऽपि वदति वा तत्र भेदः अस्ति वा न वा इति नरेश महोदय हा इदानीं भाष् इति धातु आत्मनेपदि धातु अस्ति तस्य रूपं कीदृशं तत्र भाष् इति लट्लकारे रूपं किमस्ति महोदय नरेश महोदय
भाषते भाष्येते भाषन्ते भाषते भाष्येते भाषद्वे भाषे भाषावहे भाषामहे
हा इति रूपम् अस्ति हा लङ्लकार लट्लकारे तदेव रूपम् अस्ति हा इदानीं किं भवति तत्र इदानीं लङ्लकाररूपं किम् अस्ति
अभाषत अभाषेताम् अभाषन्त अभाषथाः अभाषेथाम् अभाषध्वम् अभाषे अभाषावहि अभाषामहि
अभाषामहि इति अस्ति हा अस्तु अग्रे तत्र तत्र किं किम् अन्यत् रूपं तत्र हा अग्रिमपुटे एव दत्तमस्ति तत्र हा एतद् दृष्ट्वा तत्र लट्लकाररूपम् एकवारं तत्र शोभा भगिनी तत्र पेज् 48 मध्ये एतद् अस्ति तद् दृष्ट्वा तत्र वदतु भगिनी तत्र वर्धते इति
आं महोदय
हा तत्र वर्धते इति लट्लकाररूपम् एकवारं वदतु भगिनी तत्र
वर्धते वर्धेते वर्धन्ते वर्धसे वर्धे वर्धेथे वर्धध्वे वर्धे वर्धावहे वर्धामहे
हा इदानीं तदेव दृष्ट्वा तत्र इदानीं लङ्लकाररूपम्
आम् अवर्धत अवर्धेताम् अवर्धन्त अवर्धथाः अवर्धेथाम् अवर्धन्ध्वम् अवर्धध्वम् अवर्धे अवर्धावहि अवर्धामहि
हा इति अस्ति समीचीनं भगिनि हा अस्तु अग्रे गीताञ्जलि भगिनि तत्र जायते इति रूपं
जायते
तत्र लट्लकारमपि एकवारं दृष्ट्वा वदतु पेज् 48 मध्ये अस्ति हा
जायते जायेते जायन्ते जायसे जायेथे जायध्वे जाये जायावहे जायामहे
हा इदानीं लङ्लकाररूपं
लङ्लकार अजायत अजायेताम् अजायन्त अजायथाः अजायेथाम् अजायध्वम् अजाये अजायावहि अजायामहि
हा इति समीचीनं भगिनि हा अस्तु अग्रे हा वंशीसुधा भगिनि तत्र सहते इति
आं महोदय सहते सहेते सहन्ते सहसे सहेथे सहध्वे सहे सहावहे सहामहे लङ्लकाररूपम् अस्ति असहत्
असहत्
असहत् असहत् असहेताम् असहन्त असहथाः असहेथाम् असहध्वम् असहे असहावहि असहामहि
हा समीचीनं भगिनि हा समीचीनम् अस्तु इदानीं शुभा भगिनी तत्र भजते इति हा भजते इति लट्लकाररूपं तदनन्तरं लङ्लकाररूपं भगिनि
भजते वा
हा भजते
भजते भजेते भजन्ते भजसे भजेते भजद्वे भजे भजावहे भजामहे
समीचीनं भगिनि हा इदानीं लङ्लकारम्
अभजत अभजेताम् अभजन्त अभजताः अभजेथाम् अभजध्वम् अभजे अभजावहि अभजामहि.
हा समीचीनं भगिनी. हा अस्तु, अग्रे नरेश महोदय तत्र लभते इति.
लभते, लभते, लभेते, लभन्ते, लभसे, लभेत्थे, लभद्वे, लभे, लभावहे, लभामहे. लङ्लकारः अस्ति. अलभत, अलभेताम्, अलभन्त, अलभद्धाः, अलभेताम्, अलभद्वम्, अलभे, अलभावहि, अलभामहि.
हा इति समीचीनं महोदय. भानुचतिनी महोदय. तत्र वर्तते इति
वर्तते
लट्लकाररूपम् एकवारं, तदनन्तरं लङ्लकाररूपम्.
आं महोदय, वर्तते, वर्तेते,
पेज् 48 मध्ये अस्ति
महोदय. वर्तन्ते, स्थेते अन्ते, स्थेते द्वे, वर्तसे, वर्तते, वर्तते, वर्तद्वे.
न पुनः एकवारं वदतु महोदय.
वर्तते, वर्तेते महोदय, वर्तते, वर्तेते, वर्तन्ते, वर्तसे, वर्तेथे, वर्तद्वे, वर्ते, वर्तावहे, वर्तामहे.
हा इदानीं लङ्लकाररूपम्.
अवर्तत, अवर्तेताम्, अवर्तन्त, अवर्तथाः, अवर्तेथाम्, अवर्तद्वम्, अवर्तद्वम्, अवर्ते, अवर्तावहि, अवर्तामहि.
हा समीचीनं महोदय. हा अस्तु, इदानीं शीतल भगिनि तत्र.
आं महोदय.
हा तत्र किं तत्र एदते इति, एदते नास्तु, क्षम्यताम्, एदते मास्तु. हा सेवते, सेवते,
सेवते, सेवेते, सेवन्ते, सेवसे, सेव, सेवेते, सेवद्वे, सेवे, सेवाव, सेवामहे.
हा इदानीं लङ्लकारम्.
असेवत, अस, सेव, असेवेताम्, असेव, सेवन्त, अस, सेवथाः, असेवेथाम्, असेवद्वम्, असेवे, असेवावहि, असेवामहि.
हा समीचीनं भगिनि. हा अस्तु, उषा भगिनी. हा उषा भगिनी तत्र क्षमते इति.
क्षमते, क्षमते, क्षमेते, क्षमन्ते, क्षमसे, क्षमेथे, क्षमध्वे, क्षमे, क्षमे, क्षमावहे, क्षमामहे.
इदानीं लङ्लकारम्.
अक्षमत,
अक्षमत, अक्षमत,
अक्षमेताम्, अक्षमन्त, अक्षमताः, अक्षमे, अक्षमेथाम्, अक्षमध्वम्, अक्षमे,
अक्षमावहि,
अक्षमामहि इति अस्ति महोदय.
समीचीनं भगिनि. हा अस्तु, रघुपति महोदय तत्र जायते इति करोति वा.
जायते, जायते, जायेते, जायन्ते, जायसे, जायेथे, जायध्वे, जाये, जायावहे, जायामहे इति. इदानीं अजायत, अजायेताम्, अजायन्त, अजायताः, अजायेताम्, अजायध्वम्, अजाये, अजायावहि, अजायामहि.
हा इति समीचीनं महोदय. अस्तु, सर्वे उक्तवन्तः वा? कोऽपि हा अस्तु अस्तु इदानीं तत्र अत्रापि किं तत्र आत्मनेपदीधातूनां सामान्यरूपं दृष्टवन्तः अपि परस्मैपदीधातूनां साधारणरूपं दृष्टवन्तः नामपदमपि उपयुज्य उक्तवन्तः अस्तु अग्रे गत्वा वयं तस्य अभ्यासं कुर्मः तत्र अग्रिमपुटे बहवः
ब्रूते इत्युक्ते किं
वदति वदति इति
वदति
तत्र बहु प्रसिद्धः अस्ति अब्रवीत् इति अस्ति खलु तत्र प्रायशः एतदेव अब्रवीत् इति रूपं श्रुतवती खलु
आं महोदय
तदेव अस्ति ब्रू धातुः इति मन्ये अस्तु तत्र अग्रे गत्वा तत्र अभ्यासः यः अस्ति तद् अग्रिमवर्गे कुर्मः किन्तु तत्र प्रश्नः अस्ति वा एतावत् किं कृतवन्तः तस्मिन् विषये
महोदय तत्र ब्रू धातो अब्रुवत् इति बहुवचने अस्ति महोदय
अब्रवीत् अपि रूपम् अस्ति तदेव धातुः इति मन्ये नास्ति वा
किञ्चित् भिन्नः अस्ति महोदय उत्तमपुरुषे अब्रूवि इति अस्ति
न किन्तु अन्यलकारः प्रायशः अस्ति नास्ति वा ब्रू धातु नास्ति वा अब्रवीत् इति रूपं तदेव इति चिन्तितवान् तत्र प्रायशः अस्तु शुभभगिनी एकवारं पश्यतु तत्र अहं चिन्तितवान् ब्रू धातुः एव अस्ति इति किन्तु ब्रू इत्युक्ते उक्तवान् इति वदति इति
ब्रूते उक्तवान् उक्तवन्तः
किन्तु अब्रवीत् इति
अब्रवीत् अस्ति महोदय लङ्लकारे अब्रुवत् नास्ति
अस्तु समीचीनं धन्यवादः
मम पुस्तके अब्रुवत्
आत्मनेपदी रूपं तत् परस्मैपदी रूपम् अब्रुवन् अब्रूत् अब्रूत अब्रुता अब्रुवताम् अब्रुवाताम् अब्रुवत अब्रूताः अब्रुवाताम् अब्रूध्वम् अब्रुवि अब्रुवहि अब्रुमहि अब्रूमहि सारि
एतत् सर्वम् अष्टाध्यायी मध्ये अस्ति खलु महोदय तत्रैव प्रश्नः अस्ति वा
तदेव
अस्तु 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 बहु समीचीनम् अस्ति अष्टाध्यायी अष्टाध्यायी बहु समीचीनमस्ति तत्र पश्यन्तु अस्तु तर्हि अन्यः प्रश्नः कोऽपि अस्ति वा अस्तु तर्हि समीचीनम् अस्ति अग्रिमवर्गे एतदेव कृत्वा तत्र अग्रे कथा अपि अस्ति तां कथामपि पठामः अस्तु सर्वेषां नमस्कारः अग्रिमवर्गे मिलामः
धन्यवादः
नमस्कारः धन्यवादः नमस्कारः